एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा नेपाल विद्युत प्राधिकरणस्य सहायक संस्थायाः चिलिमी जलविद्युत आयोजनायाः अग्रेसरतायाम् रसुवा जनपदे प्रारब्धानां तिसृणां जलविद्युत आयोजनानां निर्माण कार्यं सम्पन्नमस्ति। 10.84 मेगावाट मितायाः उपरितन साञ्जीन जलविद्युत आयोजनायाः 10.75 मेगावाट मितायाः साञ्जीन जलविद्युत आयोजनायाः 11.1 शत मेगावाट मितायाः रसुवागढी जलविद्युत आयोजनायाश्च निर्माण कार्यं सम्पाद्य 68.1 शत मेगावाट मिता विद्युत राष्ट्रिय प्रसारण प्रणाल्यां योजिता अस्ति इति नेपाल विद्युत प्राधिकरणेन ज्ञापितम् वर्तते। तिसृभ्य एव आयोजनाभ्य उत्पादिता विद्युत रसुवा जनपदस्य आमा छोदिङमो ग्रामपालिकायाः थम्बुचेत स्थानीय प्राधिकरणेन निर्मिते विद्युत संयोजनोपकेन्द्रे राष्ट्रिय प्रसारण प्रणाल्यां योजिता अस्ति। विभिन्न कारण जीर्णाया चिलिमे जलविद्युत आयोजनाया नैरन्तर्यस्य प्रयासेन विहितं निर्माण कार्य महती उपलब्धि वर्तते इति प्राधिकरणस्य कार्यकारी निर्देशक कुलमान घिसिंह अज्ञापयत्। मनांग मर्स्याङदी जलविद्युत आयोजनया प्रवर्धिताया 35.1 शत मेगावाट मित क्षमताया अर्ध जलाशय युक्त मनांग मर्स्याङदी जलविद्युत आयोजनाया निर्माण कार्यम् प्रारब्धमस्ति। आयोजनाया निर्माणस्य कृते वित्तीय व्यवस्थापनेन सहैव निर्माणस्य प्रारम्भम् सम्भूतमस्ति इति आयोजनया ज्ञापितम् वर्तते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह नेपालः प्रतिवेशी राष्ट्रैस्सह अन्तर्राष्ट्रिय समुदायेनापि मैत्रीपूर्णं सम्बन्धं संस्थाप्य अग्रे वर्धमानोऽस्तीति स्पष्टयति। काष्ठमण्डपस्थितेन चीन देशीय राजदूतावासेन क्षेत्रपाठी निशुल्क चिकित्सालयाय प्रदत्तस्य वैद्युत यातायात साधनस्य हस्तान्तरण कार्यक्रमे मन्त्री सिंह दूतावासस्य सहयोग द्वयो देशयो सम्बन्धस्य विषये महत्वपूर्णां भूमिकां विवर्ति इति अभाषत। नेपालस्य कृते चीनदेशीय राजदूतः छनसंग नेपालस्यार्थिक विकासाय समृद्धये च चीनदेशेन सहयोगः विधीयमानोऽस्तीति चर्चयन् द्वयोः देशयोः विविधेषु क्षेत्रेषु सहकारेण महत्वपूर्णः परिणामः प्राप्तोऽस्तीति अगदत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे निगदति बुद्धस्य जन्मस्थलस्य लुम्बिन्याः पर्यटन केन्द्रत्वेन विकासः विधातुं शक्यते। सिद्धार्थोद्योग वाणिज्य संघेन ह्यः रूपन्देही जनपदे आयोजिते गौतम बुद्धान्तर्राष्ट्रिय विमानस्थलस्य सबल संचालन विषयके अन्तर्क्रिया कार्यक्रमे मन्त्री पाण्डे सांस्कृतिक रूपेण प्राकृतिक रूपेण च क्षेत्रमिदं पर्यटनस्य केन्द्रत्वेन विकसय्य पर्यटनस्य माध्यमेन देशेन महती प्रगतिः अधिगन्तुं शक्यते इति प्रावोचत्। मन्त्री पाण्डे अन्तर्राष्ट्रिय विमानस्थले विद्यमानानां कतिपय काठिन्यानां प्रतिकरणाय आत्मनः तत्परता स्थिति उक्त्वा प्रतिबद्धतां प्राकटयत्। जुम्ला जनपदस्य अष्टौ एव स्थानीय स्तराः साक्षराः उद्घुष्टाः वर्तन्ते। साक्षरतायाः द्वादशसु सूचकांकेषु प्रायः सूचकांकानां पूरणस्य पश्चात् जुम्ला जनपदस्य एकया नगरपालिकया सह सप्त ग्रामपालिकाः युगपत् साक्षराः उद्घुष्टाः सन्ति इति जुम्ला जनपद समन्वय समितिः प्रमुखः गौरीनन्द आचार्यः अज्ञापयत्। गत भाद्र मासस्य एकादश दिवसे हिमा ग्रामपालिका प्रथमवारं साक्षरपालिकायाः रूपेण उद्घुष्टा आसीत्। साक्षरतायाः द्वादशसु सूचकांकेषु षण्णां सूचकानां पूरकानां पालिकानां साक्षरपालिकायाः घोषणायाः प्रावधानमस्ति। नेपालस्य कृते जापान देशस्य राजदूतः किकुत्ता युताका कथयति विपदुत्थान पूर्वाधार निर्माणं कृत्वा विपदा सम्भावितस्य संकटस्य क्षतेश्च न्यूनीकरणं कर्तुं शक्यते। जापान देशी न जुआर नामा खीन एलमुनाई विश्वविद्यालय संघीन ह्य काष्ठमण्डपे आयोजितायाम जलवायु परिवर्तनस्य प्राकृतिक प्रकोपस्य च सम्बोधनम जापान नेपाल देशयोः अनुभवश्चेति विषयिण्याम गोष्ठ्याम राजदूतयुताका विपदा सम्भावितस्य संकटस्य क्षतेश्च न्यूनीकरणाय जनसंचेतनायाः अभिवृद्धौ पूर्वकार्यार्थं विपदुत्थान पूर्वाधार निर्माणाय च सर्वहि प्रवर्तन नियमित्र बलम प्रादात। बर्दिया जनपदे मादकौषधेन सहितं जनद्वयं निगृहीतं वर्तते। वर्दिया जनपदस्य गुलरिया नगरपालिकायाः द्वादश वडा क्षेत्रस्य गणेशपुरस्थानात् चत्वारिंशदुत्तर चतुष्टय ग्राम परिमित ब्राउन सुगर नामकेन मादकौषधेन सह जनद्वयं निगृहीतं वर्तते। निगृहीतौ गुलरिया नगरपालिकायाः द्वितीय वडा क्षेत्रस्य संगमवसतेः पञ्चत्रिंशत् वर्षीयः विकास विकः अस्यैव नगरपालिकायाः चतुर्थ वडा क्षेत्रस्य बेलौली स्थानस्य त्रिंशत् वर्षीयः अनिल गोरिया चस्तः इति बर्दिया जनपद प्रहरी कार्यालयस्य प्रहरी निरीक्षकः भूपेन्द्र शाही असूचयत्। काष्ठमण्डप महानगरपालिकया सप्तनवत्युत्तर चतुश्शतस्य आपणानाम् अनुगमनस्य क्रमे केवलं विंशति आपणा एव नियमानुसारेण सञ्चाल्यमानाः वर्तन्ते इति प्राप्तमस्ति। तत्र द्विशताधिकाः आपणाः पञ्जीकरणं विनैव सञ्चालिताः वर्तन्ते इति ज्ञापितमस्ति। गताश्विन मासस्य दशम दिवसात् काष्ठमण्डप महानगरपालिकया प्रारब्धे पर्वलक्षितानुगमने सप्तनवत्युत्तर चतुश्शतस्य आपणानाम् अनुगमने विहिते विंशतिः एव आपणः नियमानुसारेण सञ्चालिताः सन्तीति काष्ठमण्डप महानगरपालिकया ज्ञापितमस्ति। चितवन जनपदस्य उपदांगडी स्थाने वनभोजं भुक्त्वा प्रत्यावर्तमानं विद्यालयस्य बसयानं दुर्घटितं सद् अष्टाविंशतिर्जनाः आहताः वर्तन्ते। कालिका नगरपालिकायाः चतुर्थ वडा क्षेत्रस्य पदमपुरवर्तिन चित्रवन माध्यमिक विद्यालयस्य बसयानं ह्य सायं पञ्चवादने कालिका नगरपालिकायाः नवम वडा क्षेत्रस्य द्रव्यचार स्थाने दुर्घटितं सत् चालकेन सहिता अष्टाविंशतिर्जनाः आहताः इति चितवन जनपदस्य प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः ज्ञान कुमार महतो अज्ञापयत्। आहतेषु एकस्य जनस्य अवस्था गभीरा अस्ति। सम्प्रति चितवन चिकित्सा महाविद्यालये द्वाविंशतिः पुरानो चिकित्सा महाविद्यालये षण्णां जनानां च उपचारः जायमानोऽस्ति इति प्रहरी नायब उपरीक्षक महतो अज्ञापयत्। पूर्व पश्चिम राजमार्गान्तर्गतस्य कञ्चनपुर जनपदस्य शुक्लाफाटा नगरपालिकायाः एकादश वडा क्षेत्रस्य कलुवापुर स्थाने बसयानस्य दुर्घटनायाम् एकत्रिंशत् जनाः आहताः वर्तन्ते। धनगढ़ी स्थानात् महेन्द्रनगरं प्रति प्रस्थीयमानस्य बसयानस्य दुर्घटनायाम् आहतेषु द्वयोः अवस्था गभीरा अस्ति इति जनपद प्रहरी कार्यालयस्य सूचनाधिकारी प्रहरी नायब उपरीक्षकः उमेश जोशी असूचयत्। आहतानाम् अत्तरीयावर्तिनी चिकित्सालये महाकाली चिकित्सालये च उपचारः जायमानोऽस्ति इति प्रहरिणा ज्ञापितम् वर्तते। नवलपरासी बर्दघाट सुस्ता पूर्व नवलपुर जनपदे गण्डकस्य आक्रमणेन एको जनः मृतोऽस्ति इति समाचारः।